गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणा ब्रह्मणस्पत आनश्रृण्व नोतिभिः सेदसादनम् प्रणो देवी सरस्वती वाजेभ्यः वाजिनीवते धीनामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमण्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यातयुष शिवतमा शिव बभूवते धनुः शिवा शरव्या यातवतया नो रुद्रमृडया याते रुद्रशिवा तनुरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिश तामि चाकशीः यामिषम् गिरिशन्तहस्ते विभर्षस्तवे शिवाम् गिरित्रताम् कुरु माहिगुम् श्रीः पुरुषम् जगत् शिवे नवचसा त्वा गिरिशाच्छावदामसि यथा नः सर्वमिज्जगत यक्ष्मगुम् सुमना असत् अध्यवोचदधिवक्ता प्रथमो दैव्योऽभिषक् अहेरश्च सर्वान् जम्भयन् सर्वाश्च यातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रस्व मङ्गलः ए श्रीमागुम् रुद्रा अभितो दिक्षुश्रिता सहस्रशो वैशागुम् हेण इमहे असव्यो वसर्पति नीलग्रीवो विलोहितः ऋतैनम् गोपा अदृशन् अदृशन्नुदहार्यः ऋतैनम् विश्वा भूतादि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अथो ये अस्य सत्त्वानोऽहम् तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोराग्नियोर्जा याश्च ते हस्त इषव पराता भगवो वप अवतत्य धनुस्वगु सहस्राक्षशतेषु धे निशीर्य शय्याणामुखा शिवो नः सुमना भव विज्यम् धनुः कपर्दिनो विषय्यो बाणवागुम् उत अनेशन्नः शेषव आहुरस्य निषङ्गतिः याते हेतिर्मीढुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुज नमस्ते अस्त्वायुधायानाततय धृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् प्रणत्त विश्वतः अथो य इषुधिस्तवारे अस्मन्निधेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकात्मिकालाय काला निरुद्राय नीलकण्ठाय मृत्युम् ಜಯಾಯ ಸರ್ವೇಶ್ವರಾಯ ಸದಾಶಿವಾಯ ಶ್ರೀಮನ್ ಮಹಾದೇವಾಯ ನಮಃ. ನಮೋ ಹಿರಣ್ಯವಾಹವೇ ಸೇನಾನ್ಯೇ ದಿಶಾಂ ಚ ಪತಯೇ. ನಮೋ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಹರಿಕೇಶೇಭ್ಯಃ ಪಶೂನಾಂ ಪತಯೇ. ನಮೋ ನಮಃ ಸ್ವಸ್ತಿಂಜರಾಯ ಕೃಷಿಮತೇ ಪತೀನಾಂ ಪತಯೇ. ನಮೋ ನಮೋ ಬಭ್ರಶಾಯ ವಿಪ್ರಾಧಿನೇಂದ್ರಾನಾಂ ಪತಯೇ. ನಮೋ ನಮೋ ಹರಿಕೇಶಾಯೋಪವೀತಿನೇ ಪುಷ್ಟಾನಾಂ ಪತಯೇ. ನಮೋ ನಮೋ ಭವಸ್ಯ ಹೇತ್ಯೇ ಜಗತಾಂ ಪತಯೇ. ನಮೋ ನಮೋ ರುದ್ರಾಯ ತತಾವಿನೇ ಕ್ಷೇತ್ರಾಣಾಂ ಪತಯೇ. ನಮೋ ನಮಃ ಸೂತಾಯ ಹಂತ್ಯಾಯ ವನಾನಾಂ ಪತಯೇ. ನಮೋ ನಮೋ ರೋಹಿತಾಯ ಸ್ವಪತಯೇ ವೃಕ್ಷಾಣಾಂ ಪತಯೇ. ನಮೋ ನಮೋ ಮಂತ್ರಿಣೇ ವಾಣಿಜಾಯ ಕಕ್ಷಾಣಾಂ ಪತಯೇ. ನಮೋ ನಮೋ ಭುವಂತಯೇ ವಾರಿವಸ್ಕೃತಾಯೌಷಧೀನಾಂ ಪತಯೇ. ನಮೋ ನಮ ಉಚ್ಚೈರ್ಘೋಷಾಯ ಕ್ರಂದಯತೇ ಪತ್ತೀನಾಂ ಪತಯೇ. ನಮೋ ನಮಃ ಕೃತ್ಸ್ನವೀತಾಯ ಧಾವತೆ ಸತ್ವನಾಂ ಪತಯೇ. ನಮಃ ನಮಃ ಸಹಮಾನಾಯ ನಿವ್ಯಾಧಿನ ಆವ್ಯಾಧಿನೀನಾಂ ಪತಯೇ. ನಮೋ ನಮಃ ಕಕುಭಾಯ ನಿಷಂಗಿಣೇ ಸ್ತೇನಾನಾಂ ಪತಯೇ. ನಮೋ ನಮೋ ನಿಷಂಗಿಣ ಇಷು ಧಿಮತಿ ತಸ್ಕರಾಣಾಂ ಪತಯೇ. ನಮೋ ನಮೋ ವಂಚತೆ ಪರಿವಂಚತೆ ಸ್ಥಾಯೂನಾಂ ಪತಯೇ. ನಮೋ ನಮೋ ನಿಚೇದ್ರವೇ ಪರಿಚರಾಯಾರಣ್ಯಾನಾಂ ಪತಯೇ. ನಮೋ ನಮಃ ಶೃಕಾವಿಭ್ಯೋ ಜಿಘಾಗುಂಸದ್ಭ್ಯೋಮುಷ್ಣತಾಂ ಪತಯೇ. ನಮೋ ನಮೋ ಸಿಮದ್ಭ್ಯೋ ನಕ್ತಂ ಚರದ್ಭ್ಯಃ ಪ್ರಕೃಂತಾನಾಂ ಪತಯೇ. ನಮೋ ನಮ ಉಷ್ಣೀಷಿಣೇ ಗಿರಿಚರಾಯ ಕುಲುಂಚಾನಾಂ ಪತಯೇ. ನಮೋ ನಮ ಇಷು ಮಧ್ಯೋಧ ವಾವಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಆತನ್ವಾನೇಭ್ಯ ಪ್ರತಿದಧಾನೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಆಯಚ್ಛದ್ಭ್ಯೋ ವಿಸೃಜಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋಸ್ಯದ್ಭ್ಯೋ ವಿದ್ಯದ್ಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಆಸೀನೇಭ್ಯ ಶಯಾನೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಸ್ವಪದ್ಭ್ಯೋ ಜಾಗ್ರದ್ಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಸ್ತಿಷ್ಟದ್ಭ್ಯೋ ಧಾವದ್ಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಸಭಾಭ್ಯ ಸಭಾಪತಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ಅಶ್ವೇಭ್ಯೋ ಅಶ್ವಪತಿಭ್ಯಶ್ಚ ವೋ ನಮಃ. ನಮ ಆವ್ಯಾಧಿನೀಭ್ಯೋ ವಿವಿಧ್ಯಂತೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಉಗಣಾಭ್ಯಸ್ತ್ರಗಂ ಹತೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ಗೃತ್ಸೇಭ್ಯೋ ಗೃತ್ಸಪತಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ವ್ರಾತೇಭ್ಯೋ ವ್ರಾತಪತಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ಗಣೇಭ್ಯೋ ಗಣಪತಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ವಿರೂಪೇಭ್ಯೋ ವಿಶ್ವರೂಪೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ಮಹತ್ಯಃ ಕ್ಷುಲ್ಲಕೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ರಥಿಭ್ಯೋ ರಥೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ರಥೇಭ್ಯೋ ರಥಪತಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಸೇನಾಭ್ಯಸೇನಾಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ ಕ್ಷತ್ರುಭ್ಯಃ ಸಂಗ್ರಹೀತೃಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಸ್ತಕ್ಷಭ್ಯೋ ರಥಕಾರೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಕುಲಾರೇಭ್ಯ ಕರ್ಮಾರೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಪುಂಜಿಷ್ಟೇಭ್ಯೋ ನಿಷಾದೇಭ್ಯಶ್ಚ ವೋ ನಮೋ nama ishukrutbhyo dhanvakrutbhyascha vo namo namo mrugayubhyasvanibhyascha vo namo namasvabhyasvapatibhyascha vo namaha namo bhavaya cha rudraya cha nama sarvaya cha pasupataye cha namo Nilakrivaya cha shitikanthaya cha nama Kapardini cha pyuttakeshaya cha nama Sahasakshaya cha shatadhanvane cha nama Girishaya cha shipivishtaya cha nama Midushtamaya jeshumate cha nama Raswaya cha vamanaya cha nama Bruhate cha varshiyase cha namo Vriddhaya cha samvriddhvane cha namo Agriyaya cha pratamaya cha nama Aashave cha jhidaya cha nama Shikriyaya cha shibhyaya cha nama Urnyaya cha vasvanyaya cha nama Shrotasyaya cha dhipyaya cha Namo
Jishthaya cha kanishthaya cha nama Purvajaya cha parajaya cha namo
Madhyamaya cha pagalbhaya cha namo Jaganyaya cha buddhiyaya cha nama Sophyaya cha pratisaryaya cha namo Yamyaya cha Shemyaya cha nama Urvaryaya cha khalyaya cha nama Shlokyaya cha vasanyaya cha namo Vanyaya cha kakshaya cha nama Shravaya cha
pratishravaya cha nama
Ashushinaya cha shurataya cha nama Shuraya cha vabhindhate cha namo Varmini cha varudini cha namo Bilmini cha kavachini cha nama Shutaya cha shutasenaya cha Namo dundhubhyaya cha hanandhyaya cha namo Dushname cha pramrushaya cha namo Dutaya cha prahitaya cha namo Nishangini cha shudhimate cha nama Sikshneshave cha yudhine cha nama Swayudhaya cha sudhanvane cha nama Shutyaya cha patyaya cha nama Katyaya cha nipyaya cha nama Sotyaya cha sarasyaya cha namo Nadyaya cha vaishantaya
cha nama
Kupyaya cha vatyaya cha namo Vashyaya cha vashyaya cha namo Meghyaya cha vidyadhyaya cha nama Indriyaya cha tapyaya cha namo Vatyaya cha reshmiyaya cha namo Vastavyaya cha vastupaya cha Om Hara 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 Om Namasovaya cha rudraya cha nama Samraya cha runaya cha nama Shangaya cha pashupataye cha nama Ugraya cha bhimaya cha namo Agre
vadhaya cha dure vadhaya cha namo Hantre cha haniyase cha namo
Vrikshebhyo harikeshebhyo namastadaya nama Shambhave cha mayobhave cha nama Shankaraya cha mayaskaraya cha nama Shivaya cha shivataraya cha nama Sirtyaya cha kolyaya cha nama Varyaya
cha varyaya cha nama
Pratarnaya chottarnaya cha nama Atarnyaya cha latyaya cha nama Shashpyaya cha bhimyaya cha nama Sikatyaya cha pravahyaya cha Nama irinyaya cha prapatyaya cha nama ಕಿಗುಂಶಿಲಾಯ ಚ ಕ್ಷಯನಾಯ ಚ ನಮಃ ಕಪರ್ದಿನೀ ಚ ಪುಲಸ್ತಯೇ ಚ ನಮೋ ಗೋಷ್ಠ್ಯಾಯ ಚ ಗೃಹ್ಯಾಯ ಚ ನಮಸ್ತಲ್ಭ್ಯಾಯ ಚ ಗೇಯಾಯ ಚ ನಮಃ ಕಾಟ್ಯಾಯ ಚ ಗಪರೇಷ್ಠಾಯ ಚ ನಮೋ
ಹೃದಯಾಯ ಚ ನಿವೇಶ್ಯಾಯ
ಚ ನಮಃ ಪಾಗುಂಸಭ್ಯಾಯ ಚ ರಜಸ್ಯಾಯ ಚ ನಮಃ ಶುಷ್ಕ್ಯಾಯ ಚ ಹರಿತ್ಯಾಯ ಚ ನಮೋ ಲೋಪ್ಯಾಯ ಚ ಲಭ್ಯಾಯ ಚ ನಮಃ ಊರ್ಮ್ಯಾಯ ಚ ಸೂರ್ಮ್ಯಾಯ ಚ ನಮಃ ಪರ್ಯಾಯ ಚ ಪರ್ಣಶಸ್ಯಾಯ ಚ ನಮೋ ಅಗುರಮಾಣಾಯ ಚ ವಿಘ್ನತೇ ಚ ನಮಃ ಆಖಿಲತೇ ಚ ಪ್ರಖಿಲತೇ ಚ
ನಮೋ ವಕ್ಕಿರಿಕೇಭ್ಯೋ ದೇವಾನಾಗಂ ಹೃದಯೇಭ್ಯೋ
ನಮೋ ವಿಕ್ಷೇಣಕೇಭ್ಯೋ ನಮೋ ವಿಚಿನ್ವತ್ಕೇಭ್ಯೋ ನಮಃ ನಿರ್ಹತೇಭ್ಯೋ ನಮಃ ಮೇವತ್ಕೇಭ್ಯಃ ದ್ರಾಪಿ ಅಂಧಸಸ್ಪತೆ ದರಿದ್ರನ್ನೀರಲೋಹಿತ ಯೇಷಾಂ ಪುರುಷಾಣಾಮೇಷಾಂ ಪಶೂನಾಂ ಆಭೇರ್ಮಾ ರೋಮೋ ಏಷಾಂ ಕಿಂಚನ ಮಮತೆ ಯಾತೇ ರುದ್ರ ಶಿವ ತನೋ ಶಿವ ವಿಶ್ವಾಹ ಭೇಷಜಿ ಶಿವ ರುದ್ರಸ್ಯ ಭೇಷಜಿ ತಯಾನೋ ಮೃಡ ಜೀವಸೇ ಇಮಾಗುಂ ರುದ್ರಾಯ ತವಸೇ ಕಪರ್ದಿನೇ ಕ್ಷಯದ್ವೀರಾಯ ಪ್ರಬರಾಮಹೇ ಮತಿಂ ಯಥಾ ನಶ್ಯಮ ಚತ್ವಿಪದೇ ಚತುಷ್ಪದೇ ವಿಶ್ವಂ ಪುಷ್ಟಂ ಗ್ರಾಮೇ
ಅಸ್ಮಿನ್ನನಾತುರಂ
ಮೃಳಾನೋ ರುದ್ರೋತನೋ ಮಯಸ್ಕೃತಿ ಕ್ಷಯದ್ವೀರಾಯ ನಮಸಾ ವಿಧೇಮತೆ ಯಚ್ಚಂಚಯೋಶ್ಚ ಮನುರಾಯ ಜೇ ಪಿತಾ ತದಶ್ಯಾಮ ತವ ರುದ್ರ ಪ್ರಣೀತೋ ಮಾನೋ ಮಹಾಂತಮುತ
ಮಾನೋ
ಅರ್ಭಕಂ ಮಾನ ಉಕ್ಷಂತಮುತ ಮಾನ ಉಕ್ಷಿತಂ ಮಾನೋ ವಧೇ ಪಿತರಂ ಮೋತ ಮಾತರಂ ಪ್ರಿಯಮಾನಸ್ತನುವೋ ರುದ್ರನೀರಿಶಃ ಮಾನಸ್ತೋಕೇತನ ಯೇ ಮಾನ
ಆಯುಷಿ ಮಾನೋ ಗೋಷು ಮಾನೋ
ಅಶ್ವೇಷು ರೀರಿಶಃ ವೀರಾನ್ಮಾನೋ ರುದ್ರ ಮಾಮಿತೋ ವಧೀರ್ ಹವಿಷ್ಮಂತೋ ನಮಸಾ ವಿಧೇಮತೆ ಆರಾತ್ಯೇ ಗೋಘ್ನ ಉತ ಪೂರುಷಗ್ನೆ ಕ್ಷಯದ್ವೀರಾಯ ಸುಂ ನಮಸ್ಮೇತೆ ಅಸ್ತು ರಕ್ಷಾಚನೋ ಅದಿ ಚ ದೇವ ಬ್ರೂಹ್ಯದಾಚನ ಶರ್ಮ ಯಚ್ಚ ವಿವರಹಾ ಸ್ವಿಶ್ರುತಂ ಗರ್ತ ಸದಯುವಾನ ಮೃಗನ್ನ ಭೀಮಮುಪಹತ್ನು ಮುಗ್ರಂ ಮೃಡಾಚರಿತ್ರೇ ರುದ್ರಸ್ತವಾನೋ ಅನ್ಯಂತೆ ಅಸ್ಮನ್ನಿವ ಪಂತು ಸೇನಾ ಪರಿಣೋ ರುದ್ರಸ್ಯ ಹೇತಿರ್ಮೃಣತ್ತು ಪರಿತ್ವೇಷಸ್ಯ ದುರ್ಮತಿರಘಾಯೋ ಅವಸ್ಥಿರ ಮಗವದ್ಭ್ಯಸ್ತನುಶ್ವಮೇಣ ಶೋಕಾಯತನಯಾಯ ಮೃಡಯ ಮೀರುಷ್ಟಮ ಶಿವ ತಮ ಶಿವೋ ನ ಸುಮನ
ಭವ
ಪರಮೇ ವೃಕ್ಷ ಆಯುಧನ್ ನಿಧಾಯ ಕೃತ್ಯ ಪ್ರಸಾದ ಆಚರ ಪಿನಾಕ ಬಿಭ್ರದಾಗಹಿ ವಿಕಿರಿತ ವಿಲೋಹಿತ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವಃ ಯಾಸ್ತೆ ಸಹಸ್ರಗುಂ ಹೇತಯೋನ್ಯಮಸ್ಮನ್ ನಿವ ಪಂತು ತಾಃ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರದಾ ಬಾಹುವೋಸ್ತವ ಹೇತಯಃ ದಾಶಾಮೀಶಾನೋ ಭಗವ ಪರಾಚೀನಾ ಮುಖಾಕೃತಿ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರಶೋ ಏ ರುದ್ರ ಅರಿಭೂಮ್ಯಾ ತೇಷಾಗುಂ ಸಹಸ್ರಯೋಜನೇ ವದನ್ವಾನಿ ತನ್ಮಸೆ ಅಸ್ಮಿನ್ ಮಹತ್ಯರ್ಣವೇಂತರಿಕ್ಷೆ ಭವ ಅರಿ ನೀಲಗ್ರೀವಾಶಿತಿ ಕಂಠಾ ಶರ್ವಾ ಅಲಃ ಕ್ಷಮಾಚರಾಃ ನೀಲಗ್ರೀವಾಶಿತಿ ಕಂಠಾ ನಿವಗು ರುದ್ರ ಉಪಶ್ರಿತಾಃ ये वृक्षेषु तस्मिन् जगा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिखासक्कपर्दिनः ये अन्येषु विभिद्यन्ति पात्रेषु पिबतो जनान् ये पताम् पतिरक्षय ऐलभृदायभ्युदः ये तीर्थानि प्रचरन्ति शुकावन्तो निषङ्गिणः एतावन्तस्य भूयागु तस्य दिशो रुद्रावितस्तिरे तेषागुम् सहस्रयोजने वदन्वानि तन्मसे नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिवि एषामन्नम् वादो वर्षमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशो दीचीर्दशो द्वास्तेभ्यो नमस्ते नो मृणयन्तु तेयम् विश्वो यश्च नो वेषितम् वोजम् मे दधामि त्र्यम्बकम् यजामहे सुगन्धि पुष्टिवर्धनम् उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नयो अप्सु य ओषधेषु यो रुद्रो विश्व उभयाधिवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्योर्मत्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्नेनाप्याय स्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमश्च ह्यश्रुषश्चु धन्वायो विश्वस्य क्षयतिभेषजस्य यक्ष्वा महेशो मनसाय रुद्रम् नमो विर्देवमसुरन्धुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषजो यगुम् शिवाभिमर्शनः ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोषसे मा वर्धन्तु वाङ्गिरः द्युम्नैर्वाजेभिरागतम् पालश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे पानश्च मे ज्ञानश्च मे सुश्च मे चित्तम् च महाधीतम् च मे वाक् च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च महोजश्च मे सहश्च महायुश्च मे जरा च महात्मा च मे तनोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे ज्येष्ठ्यम् च महाधिपत्यम् च मे मन्युश्च मे भामश्च मेमश्च मेऽम्भश्च मे जेमा च मे महिमा च मे परिमा च मे प्रतिमा च मे पश्मा च मे द्राघुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुकृतम् च मे నిత్యం చ మే వేద్యం చ మే భూతం చ మే భవిష్యత్ చ మే సుఖం చ మే సుపతం చ మరుద్ధం చ మరుద్ధిశ్చ మే క్లుప్తం చ మే క్లుప్తిశ్చ మే మతిశ్చ మే సుమతిశ్చ మే శం చ మే మయశ్చ మే ప్రియం చ మేను కామశ్చ మే కామశ్చ మే సౌమనసశ్చ మే భద్రం చ మే శ్రేయశ్చ మే పశ్యశ్చ మే యశశ్చ మే భగశ్చ మే ద్రవిణం చ మే యంతా చ మే ధర్తా చ మే క్షేమశ్చ మే ధృతిశ్చ మే విశ్వం చ మే మహశ్చ మే సంవిచ్చ మే జ్ఞాత్రం చ మే సోశ్చ మే ప్రసోశ్చ మే శీరం చ మే లయశ్చ మరుతం చ మే మృతం చ మే యక్ష్మం చ మే నామయశ్చ మే జీవాదుశ్చ మే దీర్ఘాయుత్వం చ మే నమిత్రం చ మే అభయం చ మే సుఖం చ మే శయనం చ మే శోషా చ మే సుదినం చ మే ఓర్చ మే సుకృతా చ మే పయశ్చ మే రసశ్చ మే ఘృతం చ మే మధు చ మే సఖ్యశ్చ మే సభేదిశ్చ మే కృషిశ్చ మే వృష్టిశ్చ మే జైత్రం చ మహోద్భిత్యం చ మే రయశ్చ మే రాయశ్చ మే పుష్టం చ మే పుష్టిశ్చ మే విభుచ మే ప్రభుచ మే బహుచ మే భూయశ్చ మే పూర్ణం చ మే పూర్ణతరం చ మే క్షితిశ్చ మే కోయవాశ్చ మేనం చ మే శుచ్చ మే ప్రేహయశ్చ మే యవాశ్చ మే మాషాశ్చ మే తిలాశ్చ మే ముద్గాశ్చ మే హల్వాశ్చ మే గోధూమాశ్చ మే మసురాశ్చ మే ప్రియంగవశ్చ మే నమశ్చ మే శ్యామాకాశ్చ మే నివారాశ్చ మే అశ్మా చ మే మృత్తికా చ మే హిరయశ్చ మే పర్వతాశ్చ మే శిఖతాశ్చ మే వనస్పతయశ్చ మే హిరణ్యం చ మే యశ్చ మే శేషం చ మే త్రపుశ్చ మే శ్యామం చ మే లోహం చ మే అగ్నిశ్చ మఆపశ్చ మే విరుధశ్చ మఔషధయశ్చ మే కృష్టపచ్చం చ మే కృష్టపచ్చం చ మే గ్రామ్యాశ్చ మే పశవ ఆరణ్యాశ్చ యజ్ఞేన కల్పంతా విత్తం చ మే విత్తిశ్చ మే భూతం చ మే భూతిశ్చ మే వసు చ మే వసతిశ్చ మే కర్మ చ మే శక్తిశ్చ మే అర్ధశ్చ మ ఏమశ్చ మ ఇతిశ్చ మే గతిశ్చ మే అగ్నిశ్చ మ ఇంద్రశ్చ మే సోమశ్చ మ ఇంద్రశ్చ మే సవితా చ మ ఇంద్రశ్చ మే సరస్వతీ చ మ ఇంద్రశ్చ మే ఓషా చ మ ఇంద్రశ్చ మే బృహస్పతిశ్చ మ ఇంద్రశ్చ మే మిత్రశ్చ మ ఇంద్రశ్చ మే వరుణశ్చ మ ఇంద్రశ్చ మే ష్టా చ మ ఇంద్రశ్చ మే దాతా చ మ ఇంద్రశ్చ మే విష్ణుశ్చ మ ఇంద్రశ్చ మే శ్వినో చ మ ఇంద్రశ్చ మే మరుతశ్చ మ ఇంద్రశ్చ మే విశ్వే చ మే దేవా ఇంద్రశ్చ మే పృథివీ చ మ ఇంద్రశ్చ మే అంతరిక్షం చ మ ఇంద్రశ్చ మే ద్యోశ్చ మ ఇంద్రశ్చ మే దిశశ్చ మ ఇంద్రశ్చ మే మూర్ధా చ మ ఇంద్రశ్చ మే ప్రజాపతిశ్చ మ ఇంద్రశ్చ మే
agam chasya me rashmischa meda
abhyascha me dhipatischa ma
upagam suscha me antaryamascha
ma aindravayavascha
me maitra varunascha ma ashvinascha me
pratiprasthanascha me shukrascha me mandhecha ma agrayanascha me vaishvadevascha me dhruvascha me vaishvanarascha marutu grahascha me digrahyascha ma aindragnascha me vaishvadevascha me marutvadiyascha me mahendrascha ma adityascha me savitrascha me saraswatascha me paushnascha me patnivatascha me haryojanascha me itmascha me varihischa me vedascha me drishtiyascha me suchascha me chamasascha me gravanascha me saravascha ma uparavascha me dishavanecha me dronakalasascha me vayavyanicha me putavriccha ma adhavaniyascha ma agneerdhancha me havirdhanamcha me grihascha me sadascha me purodashascha me pachatascha me vavrudascha me svagakarascha me agnischa me gharmascha me irkascha me suryascha me pranascha me swamedascha me prithivicha me ditischa me ditischa me vyoscha me chatvarirangulayodishascha me yajnena kalpantamritcha me samacha me stomascha me yajascha me diksha me tapascha marutascha me ratancha me horatrayo rashtya brihadradantarecha me yajnena kalpetam garbhascha me vatsascha me dayavischa me trayavecha me dityavachcha me dityauhecha me panchavischa me panchavecha me trivatsascha me trivatsascha me turyavachcha me turyauhecha me pashtavachcha me pashtauhecha ma ukshacha me vashacha marushabhascha me vehascha me nadvancha me dhenuscha ma ayur yajnena kalpatam prano yajnena kalpatam apado yajnena kalpatam vyado yajnena kalpatam chakshur yajnena kalpatam agushotram yajnena kalpatam mano yajnena kalpatam vag yajnena kalpatam atma yajnena kalpatam yajna yajnena kalpatam ekacha me tisrascha me panchacha me saptacha me navacha ma ekadashacha me trayodashacha me panchadashacha me saptadashacha me navadashacha ma ekavigum shatischa me trayovigum shatischa me panchavigum shatischa me saptavigum shatischa me navavigum shatischa ma ekatrigum shatischa me trayastrigum shatischa me chatasascha me shtaucha me dvadashacha me shodashacha me vigum shatischa me chaturvigum shatischa me ashtavigum shatischa me dvatrigum shatischa me shatrigum shatischa me chatvarigum shatischa me चतश्चत्वारिकम् सच्चमेष्टा चत्वारिकम् सच्चमे वाजश्च प्रसवश्च विजश्च क्रतुश्च सुमश्च मूर्धा च रश्नीयश्चान्त्यायनश्चान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च इरा देवहोर्मनर्यज्ञनिर्बृहस्पति धामदानिशगुं त्रिशद्विश्वे देवासोक्तवाच पृथिवीमातर्मामाहिगुं मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमते देवेभ्यो वाचमुद्यातग शुश्रूषेण्या मनुष्येभ्यस्तम् मा देव अवन्तु शोभाय पितरो न वदन्तु ॐ शान्ति शान्ति शान्तिः ॐ
तच्छयोरावृणीमहे गातुम् यज्ञाय
गातुम् यज्ञपतये
दैवे स्वस्तिरस्तु नः
स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम्
शं नो अस्तु द्विपदे
शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः
सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उतामृतत्वस्येषा नः यदन्नेनातिरोहति
एतावाणस्य महिमा अतो जायागुस्य पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवि त्रिपादो द्वौ दैत्पुरुषः पादोऽस्येहाभवात् पुनः ततो विश्वम् व्यक्रामत शासनानशने अभि तस्माद्विराट जायत विराजो अधिपुरुषः स जातो अध्यरिच्यत पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्यास्तेजाज्यम् ग्रीष्म इद्म शरद्दविः सप्तास्या सन्परिधयः
त्रिसप्त समिदकृताः
देवा
यज्ञम्
तन्वानाः अवद्नम् पुरुषम् पशुम् तम् यज्ञम् बर्हिषि प्रोक्षन्न पुरुषम् जातमग्रदः तेन देवा अयजन्त साद्यार्षयश्च ये तस्मात्यज्ञात् सर्वहुतः संवृतम् वृषदाज्यम् पशुगुश्चाकुश्चक्रे वायव्यान आरण्यान् ग्राम्याश्च ये तस्मात्यज्ञात् सर्वहुतः ऋचः सामानि जग्निरे छन्दागुंसि जग्निरे तस्मात् यजुस्तस्मात् अजायत तस्मादश्वा अजायन्त एके चोभयागतः गावो ह जग्निरे तस्मात्
तस्मा जाता अजावयः यत्पुरुषं यदतो कदिदाव्यकल्पयन् मुखं किमस्य कौ बाहो का भूरोपादा उच्येते ब्राह्मणोऽस्य मुखमासीत् बाहुराजन्यकृतः ऊरो तदस्य यद्वैश्यः पद्व्यागुं शूद्रो अजायत चन्द्रमा मनसो जातः चक्षुः सूर्यो अजायत मुखादिन्द्रस्याग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् चेष्णोद्यौ समवर्तत पद्म्याम् भूमिर्द्विषश्रोत्रात् तथा लोकादुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वापि वदन्यदास्ते धाता पुरस्ताद्यमुदा जहार चक्रप्रविद्वान् प्रदिशश्यतस्रः तमेवम् विद्वान्नमृत इय भवति नान्यपन्तायनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते अनाकम् महिमानस्तचन्ते यत्र पूर्वे साध्या सन्ति देवाः अद्य सम्भूत पृथिव्यैरसा च विश्वकर्मणः समवर्ततादि तस्य स्वष्टा विदद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वान् अमृत इय भवति नान्यपन्था विद्यते अनाय
प्रजापतिश्चरति गर्भे अन्तः
अजायमानो बहुधा विजायते तस्य धीरा परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेदसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे ह्रेष्यते लक्ष्मीश्च पत्नौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ यातम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्छयोरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु देशजम् शन्नो अस्तद्विपदे शं चतुष्पदे ॐ शान्ति 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 ॐ भद्रम् कर्णे विश्रुणुयामदेवाः भद्रम् पश्ये मार्षभिर्यजत्राः स्थिरैरङ्गैः सुष्टुवागुंसस्तनोभिः
व्यशेम देवहितं यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति न पूषा विश्ववेदाः स्वस्ति नस्ताक्षो अरिश्चनेमिः स्वस्ति नो बृहस्पतिर्ददातु ॐ शान्ति शान्ति शान्तिः ॐ नमस्ते गणपतये त्वमेव प्रत्यक्षं तत्त्वमसि त्वमेव केवलं कर्तासि त्वमेव केवलं धर्तासि त्वमेव केवलं हर्तासि त्वमेव सर्वं खलविदं ब्रह्मासि
त्वं साक्षादात्मासि नित्यं
ऋतं वच्मि सत्यं वच्मि अव त्वं माम् अववक्तारम् अवश्रोतारम् अवदातारम् अवधातारम् अवानुचानमवशिष्यम् अवपश्चात्तात् अवपुरस्तात् अवोद्धरातात् अवदक्षिणातात् अवचोर्ध्वातात् अवाधरातात् सर्वतो माम् पाहि पाहि समन्तात् त्वम् वाङ्मयस्त्वम् चिन्मयः त्वमानन्दमयस्त्वम् ब्रह्ममयः त्वम् सच्चिदानन्दाद्वितीयोऽसि त्वम् प्रत्यक्षम् ब्रह्मासि त्वम् ज्ञानमयो विज्ञानमयोऽसि सर्वम् जगदिदम् त्वत्तो जायते
सर्वम् जगदिदम्
त्वस्तस्तिष्ठति सर्वम् जगदिदम् त्वयि लयमेष्यति सर्वम् जगदिदम् त्वयि प्रत्येति
त्वम् भूमिरापो नलो निलो नवः त्वम् चत्वारि वा पदानि त्वम् गुणत्रयातीतः त्वम् अवस्थात्रयातीतः त्वम् देहत्रयातीतः त्वम् कालत्रयातीतः त्वम् मूलादादत्तितोऽसि नित्यम् त्वम् शक्तित्रयात्मकः त्वाम् योगिनो ध्यायन्ति नित्यम् त्वम् ब्रह्मा त्वम् विष्णुस्त्वम् रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वम् वायुस्त्वम् सूर्यस्त्वम् चन्द्रमास्त्वम् ब्रह्मभोर्भुवस्वरो गणादिम् पूर्वमुच्चार्य वर्णादीम् तदनन्तरम् अनुस्वार परतरः अर्धेम् तुलसितम् तारेणरुद्धम् एतत्तव मनुस्वरूपम् गकारपोर्वरूपम् अकारो मध्यमरूपम् अनुस्वारश्चान्त्यरूपम् बिन्दुरुत्तररूपम् नादस्सन्धानम् सगुंहिता सन्धिः सैषा गणेश विद्या गणक ऋषिः निचुर्गायत्री छन्दः गणपतिर्देवता ॐ गं गणपतये नमः एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ति प्रचोदयात् एकदन्तम् चतुर्हस्तम् पाशमङ्कुशदारिणम् रदम् च वररम् हस्तेर्विप्राणम् मोषकध्वजम् रक्तम् लम्बोदरम् शूर्पकर्णकम् रक्तवाससम् रक्तगन्धानुलिप्ताङ्गम् रक्तपुष्पै सुभोचितम् भक्तानुकम्पिनम् देवम् जगत्कारणमच्युतम् आविर्भूतम् च सुष्ट्यादौ प्रकृते पुरुषात् परम् एवम् ध्यायति यो नित्यम् स योगी योगिनाम् वरः नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्ते अत्तुलम्बोदराय एकदन्ताय विघ्ननाशिने शिवसुताय वरदमूर्तये नमः एतदधर्वशेषम् यो धीते स ब्रह्मभूयाय कल्पते स सर्वविघ्नैर्न बाध्यते स सर्वत्र सुखमेधते स पञ्चमहापापात्मुच्यते सायमधियानो दिवसकृतम् पापम् नाशयति प्रातरधियानो रात्रिकृतम् पापम् नाशयति सायम् प्रातः प्रयञ्जानो पापो पापो भवति सर्वत्राधियानोपविघ्नो भवति धर्मार्थकाममोक्षम् च विन्दति इदमथर्वशेषमशिष्याय न देयम् यो यदि मोहाद्दास्यति स पापीयान् भवति सहस्रावर्तनाद्यम्यम् काममधीते तम् तमनेन साधयेत् अनेन गणपतिमभिषिञ्चति स वाग्मे भवते चतुर्थ्या मनश्शञ्चपति स विद्यावान् भवते इत्यतर्वणवाक्यम् ब्रह्माद्यावरणम् विद्यान्न बिभेति कदाचनेति यो दूर्वाङ्गुरैर्यजति स वैश्रवणोपमो भवति यो लाजैर्यजति स यशोवान् भवति स मेधावान् भवति यो मोदगसहस्रेण यजति स वाञ्छितफलमवाप्नोति यस्ताज्ज्समर्थैर्यजति स सर्वम् लभते स सर्वम् लभते अष्टौ ब्राह्मणान् सम्यग् ग्राहयित्वा सूर्यवच्चस्वे भवते सूर्यग्रहे महानद्याम् प्रतिमा सन्निधौ वाजत्व सिद्धमन्त्रो भवते महाविघ्नात्रमुच्यते महादोषात्प्रमुच्यते महाप्रत्यवायात्प्रमुच्यते स सर्वविद्भवति स सर्वविद्भवति य एवम् वेदा इत्युपनिषत् भद्रम् कर्णेभिश्शृणुयाम देवाः भद्रम् पश्येमार्षभिर्यजत्राः स्थिरैरङ्गैः सुष्ठु वागुंसस्तनोभिः यशेम देवहितम् यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्ताक्षो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्ददातु शान्ति 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 ॐ नासदासीनो सदासीत् तदानीम् नासीद्रजो नो व्योमापरो यत् किमावरिव कुहकस्य शर्मण अम्भः किमासीत् गहनम् गभीरम् न मृत्युरमृतम् तर्हिणा रात्र्या न आसीत् प्रकेतः आनीतवातग्रस्वधया तदेकम् तस्माध्यान्य न परः किञ्चनास तम आसीत् तमसा गुणमग्रे प्रकेतम् सलिलगुम् सर्वमा इदम् तुच्छेनाप्यपिहितं यदासीत् तमसस्तन्महिना जायतैकम् कामस्तदग्रे समवर्तताधि मनसोरेत प्रथमं यदासीत् सतो बन्धुमसति निरवन्दन् हृदि प्रतीश्या कवयो मनीषा तिरश्चिनो विततो रश्मिरेषा अधस्विदासि द्विपरिस्विदासि रेदोधा आसन् महिमान आसन् स्वधा अवस्तात् प्रयति परस्तात् को अद्धा वेदक इह प्रवोचत कुत आजाता कुतयं विसृष्टिः अर्वाग्देवा अस्य विसज्जनाय अता को वेद यत आबभूव इयं विसृष्टिर्यत आबभूव यदि वा दधे यदि वा न यो अस्याध्यक्षः परमेभ्यो मन् सो अङ्गवेद यदि वा न वेद ॐ शान्ति शान्ति शान्तिः ॐ अग्निर्मे वाचिश्रितः वाग्हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि वायुर्मे प्राणे श्रितः प्राणो हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि सूर्यो मे चक्षुषि श्रितः चक्षुर्हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि चन्द्रमा मे मनसि श्रितः मनोहृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि दिशो मे श्रोत्रे श्रिताः श्रोत्रगुं हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि आपो मे रेतसि श्रिताः रेतो हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि पृथिवी मे शरीरे श्रिता शरीरगुं हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि ओषधिवनस्पतयो मे लोमसि श्रिताः लोमानि हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि इन्द्रो मे बले श्रितः बलगुं हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि पर्जन्यो मे मूर्ध्नि श्रितः मूर्धा हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि ईशानो मे मन्यं श्रितः मन्युर्हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि आत्मा म आत्मनि श्रितः आत्मा हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि पुनर्म आत्मा पुनरायुरागात् पुनः प्राणः पुनराकूतमागात् वैश्वानरो रश्मिभिर्वावृधानः अन्तस्तिष्ठत् अमृतस्य गोपाः ॐ
शांति
शांति
शांति।
स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहिषाः। गोब्राह्मणेभ्यः शुभमस्तु नित्यम्। समस्तलोकाः सुखिनो भवन्तु। समस्तलोकाः सुखिनो भवन्तु। समस्तलोकाः सुखिनो भवन्तु।
ॐ शान्ति शान्ति शान्तिः।